योनिमुपैतो पुमान् बाण इवेशुधिम् आवीरो जायताम् उत्तरस्ते दशमास्यः करोमि ते प्राजापत्यो मागर्भो योनिमेतुते अनूना पूर्णो जायताम् अशलोणो पिशाचधीतः पुमांस्ते पुत्रो नारी अम्पुमाननुजायताम् तानि भद्राणि बीजानि वृषभा जनयन्तु ते यानि भद्राणि बीजानि वृषभा जनयन्ति नः तैस्त्वं पुत्रान् विन्दस्व सा प्रसूनधेनुका भव कामसमृद्ध्यतां मह्याम् अपराजितमेव मे यं कामं कामये देवा तं मे वायो समर्थय अग्निरैतु प्रथमो देवतानां सोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् तदयं राजा मुर्णोऽनुमन्यता यथेयं स्त्री पौत्र अघन्नरोदात इमामग्निस्त्रायताम् गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः अशोन्यापस्थाय जीवतु माता पौत्रमानन्दमभिप्रबुध्यतामियाम् माते गृहे निशिघोष उत्था धन्यत्र त्वदृदत्यः संविशन्तु मा त्वं विकेशुरव आवधिष्ठा जीवपत्नी पतिर्लोके विराज पश्यन्ति प्रजा सुमनस्य माना अप्रजास्वां पुत्रां मृत्युं पाप्मानमुत वाघां शीर्ष्णस्रजमिवां मुञ्चद्विषद्भ्यः प्रतिमुञ्चामि पाशाम् देवकृतं ब्राह्मणं कल्पमानन्ते न हन्मि योनिषदः पिशाचान् क्रव्यादो मृत्यो न धरान् पातयामि दीर्घमायुस्तदजीवन्त पुत्रा यत्ते सुषेमे हृदये हितमान्तः प्रजापातौ मन्ये हम्मान् तद् विद्वान्।